शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। अस्य श्रीगणपतिसहस्रनाम महामन्त्रस्य गणकऋषिः निजृद्गायत्री छन्दः गां बीजं गीं शक्तिः गूं कीलकं गं गणपतिर्देवता महाविघ्न प्रमुच्यते महादोषात् प्रमुच्यते मम महाफल प्राप्त्यर्थे सर्वकार्य सिद्धिर्भवति पूर्णफल सिद्ध्यर्थे जपपारायण अर्चनं करिष्ये। ध्यानम् एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणं रदं च वरदं हस्तैर्बिभ्राणां मूषकध्वजं रक्तं लम्बोदरं शूर्पकर्णं रक्तवाससं रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितः भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् आविर्भूतं च सृष्टादौ प्रकृतेः पुरुषात् परम्। एवं ध्यायन्ति यो नित्यं स योगी योगीनां वरः। ॐ भद्रं कर्णे ॐ भद्रं कर्णे ॐ भद्रं कर्णे ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः नन्दनोलम्पटो भीमो मेघनादो गणञ्जयः विनायको विरूपाक्षो वीरः शूरवरप्रदः महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादकः रुद्रप्रियो गणाध्यक्ष उमापुत्रो घनाशनः कुमारगुरुरीशानपुत्रो मूषकवाहनः सिद्धिप्रियः सिद्धिपतिः सिद्धिः सिद्धिविनायकः अविघ्नस्तुम्बुरः सिंहवाहनो मोहिनीप्रियः कटङ्कगो राजपुत्रः शालका सम्मितोमितः कूष्माण्डसामसम्भूतिर्दुर्जयो दुर्जयो जयः भूपतिर्भुवनानाचर्भूतानां पतिरव्ययः विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गृणी कविः कवीनां ऋषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः हिरण्मयपुरान्तस्थः सूर्यमण्डलमध्यगः कराहतिध्वस्तसिन्धुसलिलः कूशदन्तभित् उमाङ्ककेली कुतुकी मुक्तिदः कुलपावनः किरीटी कुण्डली हारी वनमाली मनोमयः वैमुख्यः तदैत्यश्रीः पादगत्याजितक्षितिः सद्यो जातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् दुःस्वप्नदुष्टशमनो गुणीनादप्रतिष्ठितः सुरूपः सर्वनेत्रादिवासो विभ्राजिनूपुरः पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः चित्राङ्गश्यामदशनो फालचन्द्रो चतुर्भुजः योगाधिपस्तारकस्थः पुरुषो गजकर्णकः गणाधिराजो विजयस्थिरो गजपतिर्ध्वजी देवदेवस्मरः प्राणदीपको वायुकीलकः विशश्चिद्वरदो नादो नादभिन्नमहाचलः वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः इच्छाशक्तिधरो देवत्रातो दैत्यविमर्दनः शम्भुवक्त्रोद्भवः शम्भुकोपजः शम्भुहास्यभूः शम्भुतेजः शिवाशोकहारी गौरी सुखावहः उमाङ्गमलजो गौरी तेजो भूस्वर्धुनी भवः यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः स सर्वात्मा सर्वदेवात्मा ब्रह्म मूर्धा कुकुप्श्रुतिः ब्रह्मांड कुंभश्चिद्व्योम भालः सत्य शिरोरुहः जगज्जन्मलयोन्मेष निमेषोऽन्यर्क सोमदृक् गिरीन्द्रैकर दो धर्मो धर्मिष्टः साम बृंहितः गहर्क्ष दश नो वाणि जिह्वो वासवनासिकः भ्रूमध्य संस्थितकरो ब्रह्म विद्यामदोदकः कुलाचलांसः सोमाक घण्टो रुद्रशिरोधरः नदी नदभुजः सर्वाङ्गुलीकस्तारकानकः व्योमनाभिश्री हृदयो मेरुपृष्टोर्णवोधरः कुक्षिस्तयक्ष गन्धर्व रक्षः किं नरमानुषः पृथ्वीकटिसृष्टिलिङ्गः शैलो रुदग्रजानुकः पातालजङ्गो मुनिपात्कालाङ्गुष्ठस्त्रयी तनुः ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः सद्भक्तध्याननिगडः पूजावारिनिवारितः प्रतापी काश्यपो मन्त्रा गणकोऽविष्टपी बली यशस्वी धार्मिको जेता प्रमतः प्रमतेश्वरः चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः रत्नमण्टपमध्यस्थो रत्नसिंहासनाश्रयः तीव्राशिरोद्धृतपदो ज्वालिनी मौलिलालितः नन्दानन्दितपीठश्रीर्भोर्गदो भूषितासनः सकामदायिनी पीठस्फुरदुग्रासनाश्रयः तेजोवती शिरोरत्नम् सत्यनित्यावतंसितः सविघ्ननाशिनी पीठः सर्वशक्त्यम्बुजाश्रयः लिपिपद्मासनाधरो वह्निधामत्रयाश्रया उन्नत प्रपदो गूढगुल्फ संवृत्तवार्ष्णिकः मीनजङ्गश्लिष्टजानुस्थूलो रुह्प्रोन्नमत्कटिः निम्ननाभिस्थूलकुक्षिः पीनवक्षा बृहद्भुजः पीनस्कन्दः कम्बुकण्ठो लम्बोष्टो लम्बनासिकः भग्नवामरदस्तुङ्गः सव्यदन्तो महाहनुः ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः स्तवकाकार कुम्भाग्रो रत्नमौलिर्निरङ्कुशः सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः रक्तेक्षणो रक्तकरो रक्ततालोष्टपल्लवः श्वेता श्वेताम्बरधरः श्वेतमाल्याविभूषणः श्वेतातपत्ररुचिरः श्वेतचामरुवीजितः सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् सर्वदेववरशाङ्गी बीजपूरी गदाधरः शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः किरीटी कुण्डलीहारी वनमाली शुभाङ्गदः इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् पाशीधृतोत्पलः शाली मञ्जरी भृत्स्वदन्तभृत् कल्पवल्लीधरो विश्वाभयदैककरो वशी अक्षमालाधरो ज्ञानमुद्रावन्मुद्गरायुधः पूर्णपात्री कम्बुधरो विद्रुताङ्कुशमूलकः करस्ताम्रफलश्चूतकलिकाभृत्कुठारवान् पुष्करस्तस्वर्णघटी पूर्णरत्नाम्बुवर्षकः भारती सुन्दरी नाथो विनायकरतिप्रियः महालक्ष्मीप्रियतमः सिद्धलक्ष्मी मनोरमः रमा रमेश पूर्वाङ्गो दक्षिणो मा महेश्वरः महीवराह वामाङ्गो रतिकन्दर्प पश्चिमः आमोदमोद जननः सप्रमोद प्रमोदनः संवर्धित महावृद्धिरुद्धिः सिद्धिप्रवर्धनः दन्तसौमुख्य सुमुखः कान्तिकन्दलिताश्रयः मदनावत्या श्रीताङ्घ्रिः कृतवैमुख्य दुर्मुखः विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्रवः विघ्नकृन्निम्न चरणो द्राविणी शक्तिसत्कृतः तीव्रा प्रसन्न नयनो ज्वालिनी पालितैकदृक् मोहिनी मोहनो भोगदायिनी कान्तिमण्डनः कामिनी कान्तवक्त्रश्री अधिष्ठितवसुन्धरा वसुधारा मदोन्नादो महाशङ्खनिधिप्रियः नवद्वसुमती माली महापद्मनिधिप्रभुः सर्वसद्गुरु संसेव्यः शोचिष्केश हृदाश्रयः ईशान्यमूर्धा देवेन्द्रशिखः पवननन्दनः प्रत्युग्रनयनो दिव्यो दिव्यास्तः शतपर्वदृक् ऐरावतादि सर्वाशा वारणो वारणप्रियः वज्राद्यस्त्रपरिवारो गणचण्डसमाश्रयः जया जय परिकरो विजया विजयावहः अजयार्चितपादाब्जो नित्यानन्दवनस्थितः विलासिनी कृतोल्लासः शौण्डी सौन्दर्यमण्डितः अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः सुभगा संश्रितपदो ललिता ललिताश्रयः कामिनी पालनः कामकामिनी केलिलालितः सरस्वत्याश्रयो गौरी नन्दनश्रीनिकेतनः गुरुर्गुप्तपदो वाचा सिद्धो वागीश्वरीपतिः नलिनी कामुको वाम रामो ज्येष्ठा मनोरमः रौद्रीमुद्रितपादाजो हुम्बीजस्तुङ्गशक्तिकः विश्वादिजननत्राणः स्वाहा शक्तिः सकीलकः अमृताब्धिकृतावासो मदघूर्णितलोचनः उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः सर्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः अनपायोऽनन्तदृष्टिरप्रमेयो जरामरः अनाविलो प्रतिहतिरच्युतो मतमक्षरः अप्रतर्क्यो अनाधारो अनामरो मयोमलः अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः अनाकारोऽब्धिभूम्यग्निफलज्ञो व्यक्तलक्षणः आधारपीठमाधार आधाराधेयवर्जितः आकुकेतन आशापूर आकुमहारथः इक्षुसागर मध्यस्थः इक्षुपायसभक्षकः इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः इन्दीवरदलश्याम इन्दुमण्डलमण्डितः इन्दुप्रिय इडाभाग इडावतेन्दिराप्रियः इक्ष्वाकुविघ्नविध्वंसी इति कर्तव्यतो स्थितः ईशानमौलिरीशान ईशानप्रिय ईतिः ईशणात्रयकल्पान्त ईहा मात्रविवर्जितः उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः उन्नतासन उत्तुङ्ग उदारस्थिदशाग्रणीः ऊर्जिस्वानूष्मलप्रदः ऊहापोह दुरासदः ऋग्यजुस्साम नयन रुद्धिः सिद्धिसमर्पकः ऋजुचित्तैकसुलभो ऋणत्रय विमोचनः लुप्तविघ्नस्वभक्तानां लुप्तशक्तिः सुरद्विषाम् लुप्तश्रीर्विमुखार्चानां लूतविस्फोटनाशनः एकारपीठमध्यस्थ येण पीठकृतासनः ये जिताखिल दैत्यश्रीरेधिताखिल संश्रयः ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः ऐरं मदसमोन्मेष ऐरावत समाननः ओङ्कारवाच्य ओङ्कार ओजस्वानोषधीपतिः औदार्यनिधिरौदत्य धैर्य औन्नत्य निःसमः अङ्कुशस्सुरनागानामङ्कुशाकार संस्थितः अस्समस्तविसर्गान्तपदेषु परिकीर्तितः कमण्डलुधरः कल्पः कपर्धी कलभाननः कर्म साक्षी कर्मकर्ता कर्मा कर्मफलप्रदः कदम्बगोलाकाकारः कूष्माण्डगणनायकः कारुण्यदेहः कपिलः कतकः कटिसूत्रभृत् खर्वः खड्गप्रियः कान्तान्तस्तः खनिर्मलः खल्वाटशृङ्गनिलयः कट्वाङ्गी कदिरासदः गुणाढ्योगः नोगस्था गद्यपद्यसुधार्णवः गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः गुहाशयो गुडाभिस्तो गुरुगम्यो गुरोर्गुरः घण्टा घर्घरिका माली घटकुम्भो घटोदरः न्यकारवाच्यो न्याकारो न्याकाराकारशुण्डभृत् चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः चराचरपते चिन्तामणिश्चर्वणलालसः छन्दश्चन्दोद्भवश्चन्दो दुर्लक्ष्यश्चन्दविग्रहः जगत्यो निर्जगत्साक्षी जगदीशो जगन्मयः जप्यो जपपरो चाप्यो जिह्वा सिंहासनप्रभुः स्रवत्गण्डोलसद्दादझङ्कारिभ्रमराकुलः टङ्कारस्पारसंरावष्टङ्कारमणिनूपुरः उद्वयः प्रापत्रय निवारी च सर्वमन्त्रेषु सिद्धिदः डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः डक्कानिनादमुदितो डङ्को डुण्डिविनायकः एकारवाच्यो वागीशो विश्वात्मा विश्वभावनः तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वपदनिरूपितः तारकान्तारसंस्थानस्तारकस्तारकान्तकः स्थाणुस्ताणुप्रियः साता स्थावरं जङ्गमं जगत् दक्षयज्ञप्रमथनो दाता दानं दमोदयः दयावान् दिव्यविभवो दण्डभृद्दण्डनायकः दन्तप्रभिन्नाभमालो दैत्यवारणधारणः दंष्ट्रालग्नद्वीपघटो देवार्थमृगजाकृतिः धनं धान्यपतेर्बन्धुः धन्यदो धरणीधरः ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः नन्दो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः परं व्योम परं धाम परमात्मा परं पदम् परात्परः पशुपतिः पशुपाशविमोचनः पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः पद्मप्रसन्नवदनः प्रणताज्ञानमोचन प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः फणिहस्तः फणिपतिः पूत्कारफणितप्रियः बाणार्चिताङ्घ्रियुगलो बालकेली कुतूहली ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः बृहत्तरो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः भूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनोरमा मेखलाहीश्वरो मन्दमतिर्मत्कमलेक्षणः महाबलो महावीर्यो महाप्राणो महामनाः यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः यशस्करो योगगम्यो याज्ञिको याजकप्रियः रसो रसप्रियो रस्यो रञ्जको रावणार्चितः रक्षो रक्षाकरो रत्नगर्भो राज्यसुखप्रदः लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः लास्यप्रियो लास्यपरो लाभकृल्लोकविश्रुतः वरण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः विकर्ता विश्वतश्चक्षुर्विधाता विश्वतो मुखः वामदेवो विश्वनेता वज्रवज्रनिवारणः विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः शब्दब्रह्मशमप्राप्य शम्भुशक्तिर्गणेश्वरः शास्ताशिखाग्रनिलयः शरण्यः शम्भरेश्वरः षड्ऋतुकुसुमस्रग्वी षडाधारः षडक्षरः संसारवैद्यः सर्वज्ञः सर्वभेषजम् सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः सिन्धूरितमहाकुम्भः सदसद्भक्तिदायकः साक्षी समुद्रमथनः स्वयं वेद्यस्वदक्षिणः स्वतन्त्रः सत्यसङ्कल्पः सामगानरसः सुखी हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुग् हव्यं हुतप्रियो हृष्टो हृल्लेखा मन्त्रमध्यगः क्षेत्राधिपः क्षमा भर्ता क्षमा परपरायणः क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणी सुरद्रुमः धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः अभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः सर्ववश्यकरो गर्भदोषः पुत्रपौत्रदः मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः प्रतिवादी मुखस्तम्भो रुष्टचित्तप्रसादनः पराभिचारशमनो दुःखहा बन्धमोक्षदः लवस्त्रुटिः कलाकाष्ठनिमेषस्तत्परक्षणः घटी मुहूर्तप्रहरो दिवानक्तमहर्निशम् पक्षो मासत्वयन्नाब्धयुगम् कल्पो महालयः राशिस्तारातिथिर्योगो वारः करणवंशकम् लग्नम् होराकालचक्रम् मेरुः सप्तर्षयो ध्रुवः राहुर्मन्दः कविर्जीवो बुधो भौमः शशीरविः कालसृष्टिस्थितिर्विश्वम् स्थावरम् जङ्गमम् जगत् भूरापोग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान् ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः त्रिदशः पितरः सिद्धा यक्षा रक्षांसि किन्नराः सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः समुद्राः सरितः शैला भूतम् भव्यम् भवोद्भवः साङ्ख्यम् पातञ्जलम् योगम् पुराणानि श्रुतिस्मृतिः वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः आयुर्वेदो धनुर्वेदो गान्धर्वम् काव्यनाटकम् वैखानसम् भागवतम् मानुषम् पाञ्चरात्रकम् शैवम् पाशुपतम् कालामुखम् भैरवशासनम् शाक्तम् वैनायकम् सौरम् जैनमार्हत संहिता सदसद्व्यक्तम् सञ्चेतनमचेतनम् बन्धो मोक्षः सुखम् भोगो योगः सत्यमनुर्महान् स्वस्ति हुम् पट् स्वधा स्वाहा श्रौषट् वौषट् वषट् समः ज्ञानम् विज्ञानमानन्दो बोधः संवित् समः शमः एक एकाक्षराधार एकाक्षरपरायणः एकाग्रधीरेकवीर एको नेकस्वरूपदृक् द्विरूपो द्विभुजोद्व्यक्षो द्विरदो द्विपरक्षकः द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयात्रिकः त्रिधा मातृकरस्त्रेता त्रिवर्गफलदायकः त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः चतुर्विधवचो वृत्तिः परिवृत्तिः प्रवर्तकः चतुर्मुखमयोपायश्चतुर्वर्णाश्रमाश्रयः चतुर्थी पूजनप्रीतश्चतुर्थीतिथिसम्भवः चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः पञ्चाक्षरात्मा पञ्चात्मा पञ्चस्य पञ्चकृत्तमः पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः पञ्चभक्ष्यप्रियः पञ्चबाणः पञ्चशिवात्मकः षट्कोणपीठः षट्चक्रधामा षट्ग्रन्थिभेदकः षडङ्गद्वान्तविध्वंसी षडङ्गुलमहाह्रदः षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः सप्तपातालचरणः सप्तद्वीपोरुमण्डलः सप्तस्वर्लोकमुकुटः सप्तसक्तिवरप्रमतः सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः सप्ताब्धिकेलिका नरः सप्तमातृनिषेवितः सप्तच्छन्दो मोदमदः सप्तच्छन्दो मुखप्रभुः अष्टमूर्तिर्ध्येयमूर्तिर् अष्टप्रकृतिकारणम् अष्टाङ्गयोगफलवृदष्टपत्राम्बुजासनः अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः अष्टपीठोपपीठश्रीरष्टमातृसमावृतः अष्टभैरवसेव्योष्टवसुन्द्योष्टमूर्तिभृत् अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यः विप्रियः अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः नवनागासनाध्यासी नवनित्यनुशासितः नवद्वारपुरावृत्तो नवद्वारनिकेतनः नवनाथमहानाथो नवनागविभूषितः नवनारायणस्तुत्यो नवदुर्गानिषेवितः नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः दशात्मको दशभुजो दशदिक्पतिवन्दितः दशाध्यायो दशप्राणो दशेन्द्रियनियामकः दशाक्षरमहामन्त्रो दशाशाव्यापि विग्रहः एकादशमहारुद्रैस्तुतश्चैकादशाक्षरः द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः त्रयोदशविधा भिन्नो विश्वे देवादिदैवतम् चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः चतुर्दशाद्यविद्याडश्चतुर्दशजगत्पतिः साम पञ्चदशः पञ्चदशी शीतांशुनिर्मलः तिथिपञ्चदशाकारस्थित्या पञ्चदशार्चितः षोडशाधारनिलयः षोडशस्वरमातृकः षोडशान्तपदावासः षोडशेन्दुकलात्मकः कला सप्तदशी सप्तदश सप्तदशाक्षरः अष्टादशद्वीपपतिरष्टादशपुराणकृत् अष्टादशौषधी सृष्टिरष्टादशविधिस्मृतः अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत् एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः सप्तविंशतितारेशः सप्तविंशतियोगकृत् द्वात्रिंशद्भैरवादीशश्चतुस्त्रिंशन्महाप्रदः षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलात्मकः पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः द्विपञ्चाशद्वपुश्रेणिस्त्रिषष्ट्यक्षरसंश्रयः पञ्चादशाक्षरश्रेणिः पञ्चाशद्रुद्रविग्रहः चतुष्षष्टिमहासिद्धियोगिनी वृन्दवन्दितः नमदेकोन पञ्चाशन्मरुद्वर्गनिरर्गलः चतुष्षष्ट्यर्थनिर्णेता चतुष्षष्टिकलानिधिः अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः शतानन्दः शतहृदिः शतपत्रायते क्षणः शतानीकः शतमुखः शतधारवरायुधः सहस्रपत्रनिलयः सहस्रपणिभूषणः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् सहस्रनाम संस्तुत्यः सहस्राक्षबलापहः दशसाहस्रफणिभृत्फणिराजकृतासनः अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः लक्षाधारः प्रियाधारो लक्षाधारमनोमयः चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः चतुराशीतिलक्षाणाम् जीवानाम् देहसंस्थितः कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः शिवोद्भवाद्यष्टकोटिवैनायकदुरन्धरः सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः अनन्तमुनिसंस्तुत ॐ नम इति ॐ भद्रं कर्णे ॐ भद्रं कर्णे ॐ भद्रं कर्णे।